विहाय कामान्यः सर्वान्
विहाय कामान्यः सर्वान्
पुमांश्चरति निःस्पृहः
पुमांश्चरति निःस्पृहः
निर्ममो निरहङ्कारः
निर्ममो निरहङ्कारः
सशान्तिमधिगच्छति
सशान्तिमधिगच्छति
वन्स् अगेन् विहाय कामान्यः सर्वान्
विहाय कामान्यः सर्वान्
पुमांश्चरति निःस्पृहः
पुमांश्चरति निःस्पृहः
निर्ममो निरहङ्कारः
निर्ममो निरहङ्कारः
सशान्तिमधिगच्छति
सशान्तिमधिगच्छति
उत्तमं नौ 72nd श्लोक लास्ट् श्लोक आफ् दिस् चाप्टर् एषा ब्राह्मी स्थितिः पार्थ
एषा ब्राह्मी स्थितिः पार्थ
नैनां प्राप्य विमुह्यति
नैनां प्राप्य विमुह्यति
स्थित्वा स्यामन्तकालेऽपि
स्थित्वा स्यामन्तकालेऽपि
ब्रह्मनिर्वाणमृच्छति
ब्रह्मनिर्वाणमृच्छति
एषा ब्राह्मी स्थितिः पार्थ
एषा ब्राह्मी स्थितिः पार्थ
नैनां प्राप्य विमुह्यति
नैनां प्राप्य विमुह्यति
स्थित्वा स्यामन्तकालेऽपि
स्थित्वा स्यामन्तकालेऽपि
ब्रह्मनिर्वाणमृच्छति
ब्रह्मनिर्वाणमृच्छति
सो नौ पूर्तिवाक्यम् ॐ तत्सत्
ॐ तत्सत्
इति श्रीमद्भगवद्गीतासु
इति श्रीमद्भगवद्गीतासु
उपनिषत्सु
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 ब्रह्मविद्यायां
ब्रह्मविद्यायां
योगशास्त्रे
योगशास्त्रे
श्रीकृष्णार्जुनसंवादे
श्रीकृष्णार्जुनसंवादे
सांख्ययोगो नाम
सांख्ययोगो नाम
द्वितीयोऽध्यायः
द्वितीयोऽध्यायः
श्रीकृष्णार्पणमस्तु
श्रीकृष्णार्पणमस्तु
अति उत्तमम् लेट् अस् चाण्ट् दीस् श्लोकास् टुगेदर् यु आर् रेडी विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः निर्ममो निरहङ्कारः सशान्तिमधिगच्छति एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति स्थित्वा स्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ॐ तत्सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे साङ्ख्ययोगो नाम द्वितीयोऽध्यायः श्रीकृष्णार्पणमस्तु